पाण्डवानां दुःशासनेन हृतवक्त्र केश कृष्णा तदाक्रोश शतदन्यनाथ गोविन्द दामोदर माधवेति श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन्मुरारे त्रायस्व मां केशवलोकनाथ गोविन्द दामोदर माधवेति विक्रेतु कामाखिल गोपकन्या मुरारे पादार्पित चेत वृत्ति दद्यादिकं मोहवशाद वोचत् गोविन्द दामोदर माधवेति उलूखले संवृत तण्डुलांश संघट्टयन्तो मुसले प्रमुग्धा गायन्ति गोप्यो जनितानुराग गोविन्द दामोदर माधवेति चित्करं भोजपुटे निषण्णं क्रीडाशुकं किं शुकरक्ततुण्डम् अध्यापयामास सरोरुहाक्षि गोविन्द दामोदर माधवेति गृहे गृहे गोपवधू समूह प्रतेक्षणं पिञ्जरसारिकाणां स्वलद्गिरं वाचयितुं प्रवृत्तो गोविन्द दामोदर माधवेति पर्याकिका भाजमलं कुमारं प्रस्वापयन्तोखिल गोपकन्या जग्गु प्रबन्धं स्वरतालबन्धं गोविन्द दामोदर माधवेति रामानुजं वीक्षण केलिलोलं गोपे गृहीत्वा नवनेत गोलम् बालकं बालकमाजुहाव गोविन्द दामोदर माधवेति विचित्रवर्णाभरणाभिरामे हि देहि वक्त्राम्बुजराजहंसि सदा मदीये रसनेग्ररङ्गे गोविन्द दामोदर माधवेति अङ्कारिरूढं शिशुगोपगूढं स्तनं धयन्तं कमलैककान्तं सम्बोधयामास मुदाय शोध गोविन्द दामोदर माधवेति व्रजमात्मजं स्वं समं वयसो पशुपालबाले प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविन्द दामोदर माधवेति यशोदया गाढमुलूखलेन गोकण्ठपाशेन निबद्ध रुरोदमन्दं नवनीतभोजि गोविन्द दामोदर माधवेति नीजाङ्गणे कङ्कणकेलिलोलं गोपे गृहीत्वा नवनीतगोलम् आमरदयत्पाणितलेन नेत्रे गोविन्द दामोदर माधवेति गृहे गृहे गोपवधू कदम्ब सर्वे मिलित्वा कृत्वा समवाय योगे पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति मन्दारमूले वदनाभिरामं बिम्बाधरे पूरित वेणुनादम् गोपगोपे जनमद्य संस्थं गोविन्द दामोदर माधवेति उत्थाय गोप्यो पररात्र भागे स्मृत्वा यशोदा सुत बालकेलिं गायन्ति प्रोच्चैर्दधि मन्थयन्तो गोविन्द दामोदर माधवेति जग्धो तदत्तो नवनीत पिण्डो गृहे यशोदा विचकेत्सयन्ति उवाच सत्यं वदहे मुरारे गोविन्द दामोदर माधवेति अभ्यर्चगेहं युवती प्रवृद्ध प्रेम प्रवाह ददिनेर्ममन्थ गायन्ति गोप्योत सके समेत गोविन्द दामोदर माधवेति क्वचित् प्रभाते दधि पूर्णपात्रे निक्षिप्यमन्थम् युवते मुकुन्दम् आलोक्य गानं विविधं करोति गोविन्द दामोदर माधवेति क्रीडापरं भोजनमज्जनार्थं हितैषिणीस्त्रे तनुजं यशोदा आजोहवत्प्रेम परिप्लुताक्षि गोविन्द दामोदर माधवेति सुखं शयानं निलये च विष्णु देवर्षि मुख्या मुनय प्रपन्न तेनाच्युते तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति विहाय निद्रा मरुदोदये च विधाय कृत्यानि च वे प्रमुख्या वेदावसाने प्रपठन्ति नित्यं गोविन्द दामोदर माधवेति गोपगणाश्च गोप्यो विलोक्य गोविन्द वियोगखिन्नं राधां जगुचाक्षु विलोचनाभ्यां गोविन्द दामोदर माधवेति प्रभात सञ्चारगतानुगावस् तद्रक्षणार्थं तनयं यशोदा प्राबोदयत्पाणितलेन मन्दं गोविन्द दामोदर माधवेति गोवालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपोतदेह मूले तरुणां मुनयः पठन्ति गोविन्द दामोदर माधवेति एवं ब्रुवाणा विरहातुरा भ्रंशं व्रजस्त्रिया कृष्णविसक्तमानसा विसृज्य लज्जां रुरुदुस्म सुखरं गोविन्द दामोदर माधवेति एक కదాచిన్ మణిపింజరస్థం సుఖం వచో వాచయుతం ప్రవృత్త ఆనందకంద వ్రజ చంద్రకృష్ణ గోవింద దామోదర మాధవేతి. వత్సబాలై శిశుకాకపక్షం వత్నంత మమ భోజ దళాయతాక్షం వాచ మాత చిబుకం గృహీత్వా గోవింద దామోదర మాధవేతి. ప్రభాతకాలే వరవల్లవౌధ గోరక్షణార్థం కృతవేత్ర దండ ఆకారయామాసురనంత మధ్యం గోవింద దామోదర మాధవేతి. జలాశయే కాళ్యమార్దనాయ యదా కదంబాద పతన్మురారే గోపాంగనాక్షు కృసురేత్య గోప గోవింద దామోదర మాధవేతి. అక్రూరమాసాది యదా ముకుంద చాపోత్సవార్థం మథురాం ప్రవిష్ట తదా సపౌరేర్ జయతేత్యభాషి గోవింద దామోదర మాధవేతి. కంసస్య దూతేన యదైవ నీతో వృందావనంతాద్ వసుదేవ సూనో రోదగోపీ భవనస్య మధ్యే గోవింద దామోదర మాధవేతి. సరోవరే కాళీయ నాగబంధం శిశుం యశోదాతనయం నిశమ్య చక్రోర్లుఠంత్యా పథి గోపబాల గోవింద దామోదర మాధవేతి. అక్రూరయానే యదు వంశనాథం సంగచ్చమానం మథురాం నిరీక్ష పుష్టుర్వియోగాత్ కిల గోపబాల గోవింద దామోదర మాధవేతి. గోపే నలినీవనంతే కృష్ణేన హీనా కుసుమేశయాన ప్రఫుల్ల నీలోత్పలలోచనాభ్యాం గోవింద దామోదర మాధవేతి. మాతాపితృభ్యాం పరివార్యమాణ గేహం ప్రవిష్టా విలలాప గోపీ ఆగత్య మాం పాలయ విశ్వనాథ గోవింద దామోదర మాధవేతి. వృందావనస్థం హరిమాశు బద్ధ్వా గోపీ గతా కాపి వనం నిశామ్యం తత్రాపి దృష్టాతి భయాదవోచ గోవింద దామోదర మాధవేతి. సుఖం శయానా నిలయే నిజేపి నామాని విష్ణు ప్రవదంతి మృత్య తే నిశ్చితాం తన్మయతాం వ్రజంతి గోవింద దామోదర మాధవేతి. సా నీరజాక్షేమవలోక్య రాధాం రురోద గోవింద వియోగ ఖిన్నం సఖీ ప్రఫుల్లోత్పలలోచనాభ్యాం గోవింద దామోదర మాధవేతి. జిహ్వే రసత్నే మధురా ప్రియా त्वं सत्यं हितत्वं परं वदामि आवरणयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति आतन्तिकाव्यादिहरं जनानां चिकित्सकं वेदविदो वदन्ति संसारतापत्रयनाशबीजं गोविन्द दामोदर माधवेति तातज्ञया गच्छति रामचन्द्रे स लक्ष्मणेरन्न च ये च सीते चक्रन्द रामस्य निजाजनत्रि गोविन्द दामोदर माधवेति काकिनी दण्डककाननान्ता सा नीयमाना दशकन्धरेण सीता तदाक्रन्ददननन्यनाथ गोविन्द दामोदर माधवेति जनकात्मजासा विचिन्तयन्ते हृदि रामरूपं रुरोदसीता रघुनाथ पाहि गोविन्द दामोदर माधवेति प्रसीद विष्णो रघुवंशनाथ सुरासुराणां सुखदुःख हेतो रोदसीता तु समुद्रमध्ये गोविन्द दामोदर माधवेति अन्तर्जले ग्राहगृहीत पादो विसृष्ट विक्लिष्ट समस्त बन्धो तदा गजेन्द्रो नितरां जगाद गोविन्द दामोदर माधवेति हंसध्वजः शङ्खयुतो ददर्श पुत्रं कटाहे प्रपतन्तमेनं पुण्यानि नामानि हरेर्जपन्तं गोविन्द दामोदर माधवेति दुर्वाससो वाक्मुपैति कृष्ण सा चाब्रवित्काननवासिनीशम् अन्तः प्रविष्टं मनसा जुहाव गोविन्द दामोदर माधवेति सदा योगिभिरः प्रमेय चिन्ताहरन्निश्चित पारिजात कस्तूरिकाकल्पितनीलवर्णो गोविन्द दामोदर माधवेति संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे विषयाभितप्ते करावलम्बं मम देहि विष्णु गोविन्द दामोदर माधवेति मामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति अजस्वमन्त्रं भववन्तमुक्ते जिह्वेरसद्मे सुलभं मनोज्ञम् पायनादेर्मुनिभिः प्रजप्तं गोविन्द दामोदर माधवेति गोपालवंशी श्रीधररूप सिंधो लोकेश नारायण दीन बंधो उच्च स्वरै स्वं वद सर्वदैव गोविंद दामोदर माधवेति। जिह्वे सदैवं भज सुंदराणि नामानि कृष्णस्य मनोहराणि समस्त भक्तार्ति विनाशनानि गोविंद दामोदर माधवेति। गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण गोविंद गोविंद रथांग पाणि गोविंद दामोदर माधवेति। सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् देहावसाने त्विदमेव जाप्यं गोविंद दामोदर माधवेति। दुर्वारवाक्यं परिगृह्य कृष्ण मृगेव भीता तु कथं कथञ्चित् सभा प्रविष्टा मनसा जुहाव गोविंद दामोदर माधवेति। श्रीकृष्ण राधा वर गोकुलेश गोपाल गोवर्धन नाथ विष्णु जिह्वे पिबस्वामृतमेतदैव गोविंद दामोदर माधवेति। विश्वेश्वर विश्वमूर्ते श्रीदेवकी नंदन दैत्य शत्रु जिह्वे पिबस्वामृतमेतदैव गोविंद दामोदर माधवेति। गोपीपते कंसरिपो मुकुंद लक्ष्मीपते केशव वासुदेव जिह्वे पिबस्वामृतमेतदैव गोविंद दामोदर माधवेति। गोपीजनालाद कर व्रजेश गोचारणारण्य कृत प्रवेश जिह्वे पिबस्वामृतमेतदैव गोविंद दामोदर माधवेति। प्राणेश विश्वं भरकैटभारे वैकुंठ नारायण चक्रपाणे जिह्वे पिबस्वामृतमेतदैव गोविंद दामोदर माधवेति। हरे मुरारे मधुसूदनाद्य श्रीराम सीता वर रावणारे जिह्वे पिबस्वामृतमेतदैव गोविंद दामोदर माधवेति। यादवेन्द्रादिधराम्बुजाक्ष गो गोप गोपे सुखदान दक्ष जिह्वे पिबस्वामृतमेतदैव गोविंद दामोदर माधवेति। भरोत्तारण गोपवेश विहार लीला कृत बंधु शेष जिह्वे पिबस्वामृतमेतदैव गोविंद दामोदर माधवेति। बकी बकाघा सुरदेनुकारे के देशे तृणावर्त विघात दक्ष चिह्ने पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति। श्रीजानकी जीवन रामचन्द्र ईशाचरारे भरताग्रजेश जिह्वेऽपि बस्वामृतमेतदेव गोविन्द दामोदर माधवेति। नारायणानन्त हरे नरसिंह प्रह्लाद बाधा हर हे कृपालो पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति। लीला मनुष्याकृतिरामरूप प्रतापदासे कृत सर्वभूप जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति। श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति। समरतोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यं जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति।